सर्वेभ्यो नमः, शुभनवरात्रि। गतवर्गे वयम् एकां कथां पठितवन्तः, तत्र प्रायशः अर्धभागम् अपि अवगतवन्तः। किञ्चित् करणीयमस्ति तत्र, तत् कृत्वा अग्रे सरामः। तत्र कथा अस्ति दोषः परिवर्तनाय भवेत् इति। अस्तु, तत्र रघुपतिमहोदय किञ्चित् विवृणोति वा तत्र?
महोदय, नन्तरं करोमि महोदय, मम इण्टर्नेट् किञ्चित् स्लो अस्ति, ओपन् कुर्वन् अस्ति।
नरेश महोदय किञ्चित् वदति वा तत्र? तत्र
एकः बालकः अस्ति, सः निर्धनः अस्ति, विद्यालयं गच्छति, अन्य छात्रैः सह सः एकं उद्यानं गच्छति, उद्याने
छात्रैः सह उद्यानं गच्छति,
उद्याने आम्रवृक्षाः सन्ति, सर्वे छात्राः आम्र वृक्षात्
फलानि
प्राप्नुवन्तः,
स्वीकुर्वन्ति टेक्
स्वीकुर्वन्ति, तदा उद्यानस्य
पालकः
तत्र आगच्छति, सर्वे छात्राः
पलायनं कुर्वन्ति,
परन्तु सः बालकः पलायनं
कर्तुं न शक्नोति,
पालकः तस्य
बालकं गृह्णाति न ताडयति, क्रोधेन वदति, किन्तु ताडनं न करोति खलु।
तदा निर्धन बालकः निर्धना अस्मि, मम पिता अपि नास्ति, अहं भविष्य
बहुसमीचीनमस्ति महोदय, बहुसमीचीनम्, इदानीं अग्रे बहु समीचीनमस्ति। इदानीं गीताञ्जलिभगिनी, अत्र सः किं वदति इति किञ्चित् वदति वा?
बालकः वदति अहं,
तत्र उद्यानपालकः किं वदति?
उद्यानपालकः अनन्तरं वदति एतत्
चौरकार्यं
मा कुरु। किमर्थं त्वं चोरकार्यं करोति, एतत् कार्यं मा कुरु।
यदि तदा बालकः किं वदति?
ततः बालकं बालकं
न न तत्र
वदति
तत्र अस्ति परिच्छेदः अस्ति खलु बालकः कम्पमानेन ध्वनिना इति तत्र वयं सम्यक्तया न परिशीलितवन्तः खलु
अस्तु अस्तु बालकः कम्पमानेन बालकः स्वस्य चोरकार्यं स्वीकृतवान् अतः अतः वदति मम अज्ञानेन
अस्तु भगिनि भगिनि गीताञ्जलि भगिनि भवती स्मरति वा वयं कियत् पर्यन्तं कृतवन्तः तत्र लज्जा न भवति इति तावत् पर्यन्तं
कृतवन्तः
नरेश महोदय स्मरति वा लज्जा न भवति इति तावत् पर्यन्तमेव कृतवन्तः वा गतवर्गे तदनन्तरं न कृतवन्तः खलु अस्तु अतः गीताञ्जलि भगिनि इदानीं भवती एतत् कर्तुं शक्नुमः वयं तत्र बालकः कम्पमानेन ध्वनिना इति
अस्तु महोदय
किन्तु एकवारं तत्र तस्य पूर्वं यत् उद्यानपालकः वदति तद् केवलम् एकवारं पठित्वा तत् तत्र अवगमनम् अस्ति इति मन्ये अहो त्वं छात्र ननु इति तदारभ्य तदेकवारं पठतु किन्तु बालकः कम्पमानेन ध्वनिना तत्र सम्यक्तया परिशीलयामः
अस्तु महोदय क्षम्यता महोदय अहो त्वं छात्रः ननु एतादृशं चौरकार्यं कुर्वतः तव किं लज्जा न भवति इति उद्यानपालकः क्रोधेन वदति बालकः
इदानीं बालकः इदानीं परिशीलयामः पङ्क्तिशः
बालकः स्वस्य
तत्र वाक्यं पठित्वा वदतु भगिनि
अस्तु महोदय मया दोषः कृतः श्रीमन् अहम् अस्मि पितृविहीनः निर्धनबालकः अज्ञानेन सह वासदोषेण च अहम् एतादृशं कार्यं कृतवान् कृपया क्षन्तव्यः अहम् इति अवदत्
तत्र बालकः अवदत् आरम्भे अस्ति अन्ते अवदत् इति अस्ति बालकः किम् अवदत् इत्युक्ते मध्ये अस्ति अस्तु बालकः तत्र कम्पमानेन ध्वनिना इति अस्ति तत् किम् अस्ति कम्पमानेन इति विभक्तिका
कम्पमानेन तृतीया
ध्वनिना तत्र कम्पमानेन ध्वनिना सः अवदत्
कम्पमानेन ध्वनिना बालकः अवदत् मया दोषः कृतः श्रीमन्
तद् कर्त्रि अहं कृतवान् किं कृतवान्
अहं अहं दोषः
अहं दोषं कृतवान्
अहम् अपि च पितृविहीन निर्धन अस्ति
पितृविहीनः इत्युक्ते
मम पिता नास्ति
अहं निर्धनः अस्मि
निर्धन अपि अस्मि अपि च अहं
इदानीम् अग्रिमवाक्यम् अज्ञानेन
अज्ञानेन सह वासदोषेण च अहम् एतादृशं कार्यं कृतवान्
तत्र अज्ञानेन सहवासदोषेण च अहम् एतादृशं कार्यं कृतवान्
अज्ञानेन इत्युक्ते तृतीय सह वासदोषेण सहवासदोषेण च अहम् एतादृशं कार्यं कृतवान् यतः मम
सहपाठिना
कृतवन्तः तादृशमपि च अहं
कृतवान् ते कृतवन्तः तद् दृष्ट्वा अहमपि तदेव कृतवान्
तदेव अहं कृतवान् अस्तु महोदय कृपया क्षन्तव्यः अहं कृपया मां क्षम्यतां कुरु सम्यक् महोदय
क्षम्यतां
इति बालकः अवदत्
सः अथवा अन्यरीत्या बालकः क्षमां याचति
क्षमां याचति
क्षमाम् अथवा क्षमा इति तत्र किञ्चित् कोऽपि जानाति वा क्षमाम् अथवा क्षमा याचति क्षमाम् इति मन्ये
याचते
तादृशमपि वयं वक्तुं शक्नुमः अस्तु समीचीनं भगिनि अग्रे रघुपतिमहोदय अग्रे वदति वा इदानीम्
आं महोदय पितृविहीनः इति त्वं वदसि खलु किन्तु एतादृशम् अकार्यं करोषि इतः परम् एतादृशं कार्यं मा कुरु यदि पुनः एवं करोषि तर्हि तव अस्थिभङ्गं स्यात् सम्यक् स्मर इति वदन् बालकस्य हस्तं विमुक्तवान् सः उपदेशं करोति त्वं पितृवीनः इति वदन् अस्ति तथापि एतादृशं चौरकार्यं कुर्वन् अस्ति एतत् समीचीनं न एतादृशकार्यम् इतः परं अग्रे मा कुरु इति उपदेशं करोति यदि पुनरेकवारं एतादृशकार्यं कुर्वन् अस्ति एतादृशकार्यं करोति चेत् अहं सम्यक् ताडयामि इति
तत्र तर्हि तव अस्थिभङ्गः अस्थिभङ्गः इत्युक्ते अस्थिभङ्गः अस्ति
इत्युक्ते ब्रेक् युर् बोन्स्
अस्थिभङ्गः
अस्थिभङ्गः स्यात् तव अस्थिभङ्ग एव भवति अस्थिभङ्गति
भवेत्
सम्यक् भवेत् सम्यक् स्मर स्मर इति लोट् लकार सम्यक् स्मर
यत् यत् अद्य अभवत् तद् अथवा तां या घटना अद्य अभवत् सा तां घटनां जीवनपर्यन्तं सम्यक् स्मर
इति वदति इति तं तर्जितवान् एषः
तस्य हस्तं
तर्जित्वा बालकस्य हस्तं त्यक्त्वा सारी अस्तु त्यक्त्वा बालकस्य हस्तं सारि त्यक्तवान् बालकं त्यक्तवान्
बालकं त्यक्तवान् अथवा विमुक्तवान् यत् आसीत् हस्तं हस्तस्य विमोचनं कृतवान् तदपि बालकस्य हस्तस्य विमोचनं कृतवान् इति. समीचीनं महोदय. अस्तु, अग्रे नरेश महोदय.
महोदय, ततः बालकः धावन् शालां प्रत्यागतः. तदा एव तेन निश्चितं यत् इतः परं मया कदापि अकार्यं चौर्यं वा न करणीयम् इति. बालकः धावितवान् शालां गतवान् एवं निश्चितं कृतवान् अहं भविष्यकाले एतत् कार्यं न करणीयम्.
कदापि तत्र चौर्यं वा अकार्यं वा कदापि न करणीयम् इति. तत्र प्रत्यागतः इति अस्ति, तत्र प्रत्यागतः तस्य सम्बन्धः
तस्य प्रत्यागतः गोयिङ्ग् बेक्
सत्यं. किन्तु प्रत्यागतः तत्र तस्मिन् वाक्ये केन पदेन सम्बन्धः अस्ति, कस्य पदस्य अन्वयः, तस्य अन्वयः कुत्र अस्ति प्रत्यागतः इति?
ततः प्रत्यागतः.
ततः प्रत्यागतः. ततः इत्युक्ते कुतः?
तत्र कुत्र चौर्यं चौर्यकार्यं
न न उद्यानतः 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 बालकः शालां प्रत्यागतः. तत्र प्रत्यागतः धावन् धावन् इत्युक्ते धावति. तत्र शतरन्तरूपं वयं पूर्वं दृष्टवन्तः खलु भगिनि. तत्र अहं गायन् गच्छामि, तत्र कार्यद्वयम् एकस्मिन् समये
धावित्वा इति भवति.
तत्र धावति अपि प्रत्यागच्छति, हि रिटर्न्स्. क्रियाद्वयम् अस्ति, प्रतिगमनम् अस्ति तत्र. अतः तत्र धावन् इति शत्रान्तरूपं. तत्र प्रत्यागतः इति रूपं कीदृश किम् अस्ति तत्र?
भूतकालरूपम् अस्ति.
तत्र कः प्रत्यागतः? कः प्रत्यागतः?
बालकस्य विशेषणमस्ति,
बालकस्य विशेषणमस्ति. प्रत्यागतः बालकः इति. बालकः धावन् शालां प्रत्यागतः. तदा एव तेन निश्चितम् अस्तु करणीयम् इति. अग्रे नरेश महोदय किञ्चित् एव अस्ति, तत् समापयतु.
आजीवनं तत् व्रतम् अपालयत्. अयमेव निर्धनबालकः भाविनि काले भारतस्य प्रधानमन्त्री जातः. तस्य नाम लालबहादुर शास्त्री इति. सः बालकः जीवनपर्यन्तं निश्चयम् अपालयत्.
यत् निश्चितवान् एतद् न करणीयम् इति, तद् तद् व्रतं सः पूर्णजीवनं सः अपालनं कृतवान् सः.
एव निर्धनबालकः भाविनि काले भारतस्य प्रधानमन्त्री जातः. सः बालकः अन्तः भारतस्य प्रधानमन्त्री अभवत्.
भाविनिकाले, भाविनी इत्युक्ते फ्यूचर् इति, भाविन् इति मन्ये तत्र नपुंसकलिङ्गपदम् इति. तत्र भाविनी काले भारतस्य प्रधानमन्त्री जातः एषः बालकः. तस्य सः एव लाल् बहदुर् शास्त्री. समीचीनम् अस्तु
महोदय. पालयत् पालितवान् अपि च सम्यक् वा?
पालितवान्
सम्यक् नास्ति.
समीचीनमेव.
सोरि, व्रतं पालितवान्.
व्रतं पालितवान् सत्यम्.
आजीवनं
जीवनपर्यन्तं पूर्णजीवनं
पूर्णजीवनमपि च
ततः आरभ्य प्रतिदिनं सः एतत् व्रतं तस्य पालनं कृतवान्. कदापि तस्य व्रतस्य भङ्गः न अभवत्. कदापि न अभवत्.
सम्यक् कथा
अस्तु. अस्तु, अन्यप्रश्नः अस्ति वा? तत्र सर्वे तत्र सर्वे समीचीनतया अवगच्छन्ति वा तत्र?
आम् महोदय.
अस्तु, हा तत्र
महोदय अपायत् किं लकारः कः लकारः
अपठत्
लङ्लकः अपठत् इति तादृशरूपं भूतकालरूपं अभवत् अभवत् इति तादृशरूपम्. एतत् पुराण प्राचीना कथा अस्ति खलु, अतः यदि सः इदानीमपि सः अस्ति चेत् तदपि तथापि एतत् अभवत् इति कृत्वा तत्र अपालयत् इति.
लाल् बहादुर् शास्त्री महोदयस्य माता अपि च नास्ति महोदय?
न जानामि भगिनि, एतद् केवलं यत् अस्यां कथायां लिखितं तदेव जानामि. तस्य पिता कदा सः दिवङ्गतः इति न जानामि, अथवा तस्य माता कदा दिवङ्गता इति न जानामि भगिनि.
अहम् इति मन्ये महोदय, यदि अनाथः अस्ति चेत् बालकः वुड् हेव् लैक् वदति अहम् अनाथः, किन्तु अहम् अनाथः न.
तत्तु सत्यं भगिनि, सत्यं. तत्र प्रायशः तत् सत्यमेव इति मन्ये. सः शास्त्री अनाथः एव आसीत् इति मन्ये. अत्र अस्यां कथायां
तस्य शास्त्री 6 months old his father died.
अस्तु,
अपि च
माता आसीत्, माता आसीत् रामदुलारीदेवी. ओन्लि 23 went to her father's house. विकिपीडिया में अस्ति.
सम्यक् महोदय.
अस्तु, धन्यवादः. तत्र मातुलस्य गृहे वसन् इति अस्ति. अस्तु,
शी आल्सो डैड् सेम् इयर् एच् वेन् शी गेव्
फादर् डैड्
फादर् मदर् आल्सो डैड् रामदनान्
अतः सः अनाथः वा महोदय?
अनाथः. सिस्टर् ग्रो अप् इन् द हौस् होल्ड् आफ़् मेटर्नल् ग्राण्ड् फादर् हजारि लाल्जि. हि हिम्सेल्फ् डैड् आफ्टर् 2 years. सो एण्टैर् फेमिलि वास् लुक्ड् आफ्टर् बै हिस् ब्रदर्
अतः तत्र केवलं पितृविहीनः इति न
सम्यक् न
सम्यक् न ऐ मीन् तद् सत्यं, किन्तु अहम् अनाथः इति तद्
पितृहीनः
पितृविहीनः
विहीनः
पितृ मीन्स् पितर् माता पितृ द्वये अपि पितरौ पितृविहीन इति भवति वा?
एवं पितृहीनः विहीनः
केवलं पितुः विषयः अस्ति इति मन्ये. तत्र
मिस्लीडिङ्ग् महोदय किम्?
अतः तत्र अहम् अनाथः अस्मि, निर्धनः अस्मि इति प्रायशः समीचीनम् अस्ति इति मन्ये अत्र. किन्तु वयं केवलं कथां पठामः खलु.
आङ्ग्लभाषा मिस्लीडिङ्ग् पदं संस्कृतभाषा कथं वदामः
कथा
तु समीचीनम् एव अस्ति, तत्र वाक्यमेव किञ्चित् मिथ्याम् अस्ति,
वाक्यमेव मिथ्याम्
अस्ति, कथा तु समीचीनम् अस्ति खलु, समीचीनम् अस्ति. अस्तु, तत्र दोषः परिवर्तनाय भवेत् इति तस्य वाक्यस्य अर्थः कः?
चतुर्थी
महोदय,
परिवर्तनाय,
हा दोषः परिवर्तनाय भवेत् इति,
चतुर्थी परिवर्तनाय, फार् फार्
चेञ्ज्,
फार् चेञ्ज्, सो अ मिस्टेक् फार् मिस्टेक् कॉज्ड् चेञ्ज् फार् चेञ्ज्,
न न परिवर्तनाय भवेत्,
मिस्टेक् लेड् टु परिवर्तनं,
हा मिस्टेक्
बिकेम् किन्तु एकवचनं महोदय,
मिस्टेक् इस् फार् चेञ्ज् इस् देर् फार् चेञ्ज्
भवेत् इति विधिलिङ्ग करोति वा, दोषपरिवर्तनाय भवेत्
भवति, लेट् अ मिस्टेक् बिकम् लेट् अ मिस्टेक् लीड् टु चेञ्ज्,
तादृशं तादृशार्थः, सत्यं भगिनि, अस्तु अस्तु, अतः कथं समापितवन्तः वयम्, अस्तु इदानीम् अग्रे गीतासोपने अग्रे गच्छामः वा, अस्तु तत्र लृट्लकारस्य विषयाद्य, अस्तु तत्र गीताञ्जलि भगिनी तत्र किञ्चित् पठति वा तत्र, पेज् 110
सप्तविंशतिः अध्यायः, करिष्ये वचनं तव, करिष्ये वचनं तव, लुट्लकारः, लुट्लकारः अपि च भविष्यकाल रूपाणि, एतान् गीताश्लोकान् उच्चैः पठत, अथ चेत्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि, ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि.
तत्र पापं
सम्यक् न सम्यक् न वदामि, एकवारं पुनः
अस्तु भगिनि,
अथ चेत्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि, ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि.
अस्तु, तत्र अवाप्स्यसि इति अपि करिष्यसि, इदानीं यत् रक्तवर्णे यत् अस्ति केवलं तत् एकवारं पठतु भगिनि,
करिष्यसि अपि च
अवाप्स्यसि,
अवाप्स्यसि, अस्तु महोदय, करिष्यति इत्युक्ते
पश्यामः, हा इदानीं करोति किन्तु अग्रे करिष्यसि इति,
अग्रे करिष्यति
किन्तु एकवारं रूपं तद् पश्यामः, तत्र करिष्यसि अपि अवाप्स्यसि, अग्रे अग्रिमश्लोके कथा केवलं रक्तवर्णे यत् अस्ति तदेव,
अस्तु महोदय, ओके, कथयिष्यन्ति,
कथयिष्यन्ति,
यास्यसि, बहून् वदिष्यन्ति, प्राप्स्यसि, भोक्ष्यसे, पापमवाप्स्यसि, प्रहास्यसि
इति अस्ति. अस्तु, तत्र नरेश महोदय, तत्र करिष्यसि, अवाप्स्यसि, कथयिष्यन्ति, तत्र यत् रक्तवर्णे अस्ति तत्र क्रियापदं, तद् दृष्ट्वा वचनमपि पुरुषं, पुरुषः क इति वदति वा? करिष्यसि किम्
करिष्यसि मध्यम पुरुष एक वचनम्.
अवाप्स्यसि
अवाप्स्यसि अपि मध्यम पुरुष एकवचनम्.
अस्तु, कथयिष्यन्ति
प्रथम पुरुष बहुवचनम्.
अस्तु, तत्र भोक्ष्यसि, भोक्ष्यसि
तत्तु आत्मनेपदी मध्यम पुरुष एकवचनम्.
एकवचनं, समीचीनं महोदय. अस्तु, अतः तत्र क्रियापदं दृष्ट्वा किञ्चित् अवगमनं भवति खलु, नूतनलकारः अस्ति चेदपि तत्र मध्यमपुरुषः वचनं कीदृशं भवेत् इति किञ्चित् ज्ञानं तु अस्ति एव. अस्तु, रघुपतिमहोदय तत्र अग्रे तत्र एतानि वाक्यानि उच्चैः पठत
अवगच्छत च. अद्य सोमवासर अस्ति सत्यं, श्वः मङ्गलवासर भविष्यति.
अग्रे
श्वः अहं संस्कृतं पठितुं संस्कृतशिबिरं गमिष्यामि.
तत्र गमिष्यामि
गमिष्यामि इति
उत्तमपुरुष
एकवचनानि गमिष्यामि. अग्रिमे मासे अहं संस्कृतस्य परीक्षां लेखिष्यामि. तत्रापि लिखति तस्य उत्तमपुरुष एकवचनमस्ति लेखिष्यामि इति.
तत्र अत्र एकः विषयः अत्र प्रायशः वक्तव्यं वक्तव्यः अस्ति. तत्र प्रातःकाले यदि वयं वदामः एतं कार्यं करोमि, सायङ्काले एतत् कार्यं करोमि, तत् समीचीनमेव, तस्मिन् क्षणे एव न कुर्मः, भविष्यत्काले एव कुर्मः इति अस्ति. किन्तु तत्र करोमि अथवा वदामि इति तादृश वर्तमानकालरूपं लट्लकाररूपं तस्मिन् दिने प्रातःकाल वा सायङ्काल वा किमपि भवतु, तत्र तादृश भविष्यत्काल अद्यतन तत्र किञ्चित् भेदः अस्ति. एतद्रूपं एषः लकारः लुट् लकारः, तत् अन्य अनद्यतन भविष्यत्कालः इति. तत्र श्वः करिष्यामि, श्वः एतत् करोमि इति वक्तुं शक्नुमः, किन्तु करिष्यामि इति एव प्रायशः सम्यक् रूपम् इति मन्ये. तत्र अनद्यतन भविष्यत्कालरूपम् इति मम चिन्तनम् अत्र.
लट्लकार अद्य टुडे वी केन्
सत्यं तस्मिन् दिने अग्रे गत्वा करिष्यामि इति करोमि, सायङ्काले करोमि, सायङ्काले
करोमि इति न सम्यक् अस्ति महोदय. अस्तु,
किं महोदय
श्वः करोमि इति वाक्यं
मम चिन्तनमस्ति करिष्यामि इति एव. किन्तु जनाः वदन्ति श्वः करोमि इति, किन्तु रूपम् एतादृशमेव भवेत् इति मन्ये. अस्तु, तत्र किन्तु तस्मिन् दिने वयं लट्लकाररूपम् उपयुज्य वाक्यं रचितुं शक्नुमः, तत्र दोषः नास्ति. किन्तु अनद्यतन श्वः वा अग्रिममासे वा किमपि, तत्र एषः लकारः आवश्यकः अस्ति. लृट्लकारः
अनद्यतन भविष्यति लुट् लकार
लृट्
भविता भवितार तत् एव लृङ् लकार सारी लुट् लकार अस्ति वा
लुट् लकार नाट् लृट् लुट्
लुट् लकार
लक् लुट् एतदेव लुट् लकार न
लुट् भविष्यत् कालः
लुट् लुट् लकार लृ न लृट् लकार भविष्यत् काल
एतदेव अस्ति भगिनि क्लेशः एव अस्ति तत्र अग्रिमपुटे पश्यतु तत्र किम् अस्ति इति चलिष्यति अतः
लुट् लकार अस्ति भविता भवति मङ्गलवासर भविता इति कम्यक् अस्ति लुट् लकारं भविता भविता
भवति कीदृशरूपम् अपेक्षितं भवती किं पृष्टवती अहं न गच्छामि भगिनि
क्षम्यतां महोदय
पुनरेकवारं वदतु पृच्छतु
भविष्यत्काल द्विविधम् अस्ति लृट्लकारे उत्तमपुरुष भविष्यामि लुट्लकारे भविता अस्मि
किन्तु अत्र अस्ति एतत् भविष्यामि इति तादृशरूपम् अद्य कुर्मः अत्र
कोऽपि लुट्लकार अद्यतने कोऽपि तस्य उपयोगं न करिष्यति अद्यतनकाले केवलं साहित्ये एव सर्वे भविष्य लुट्लकार एव उपयोगं करोति लुट्लकार न करोति किञ्चित् क्लिष्टकर अस्ति अतः एव अस्ति चिन्ता
एतत् अस्तु सुलभतया एषः लकारः तस्य अभ्यासं कुर्मः अस्तु
महोदय लङ् लकारे अनद्यतने अपि प्रयोग कुर्मः इत्युक्ते यदि अहं किञ्चित् कार्यं प्रातः काले कृतवती
कृतवती चेत् करोमि इति न भवति खलु भगिनि
अस्तु अस्तु किन्तु लङ्लकार समीचीनं वा
समीचीनम् अहं मया एतत् कार्यं कृतं
समीचीनम् अनद्यतने अस्ति तत्र लृङ्लकार अस्ति अभूत् किमपि अस्ति तस्य रूपं लृङ्लकारस्य
किन्तु प्रथमतया अत्र प्रथमतया तत्र वर्तमानकालस्य एकलकार तस्य अभ्यासं भवतु अपि भूतकालस्य एकलकार तस्य अभ्यासं भवतु तदनन्तरं चर्चां कुर्मः कस्मिन् प्रसङ्गे किं किं किम् इति किन्तु
तदपि
मनसि स्थापयन्तु अद्य यत् कुर्मः तत्र यदि न वदामः अहं करिष्यामि केवलं करोमि तत्र दोषः नास्ति सायङ्काले करोमि अथवा सायङ्काले करिष्यामि दोषः नास्ति
दोषः नास्ति किन्तु लट्लकार एव
लट्लकार तत्रापि तस्य प्रयोगः भवति इति तत् स्थापयतु तावदेव
किन्तु लट्लकार अद्यतन कार्यं न प्रयोग
तत्र तत्र लट्लकारे एव तत्र वदतु सायङ्काले सायङ्काले वा किमपि करोमि इति तत् समीचीनमेव करिष्यामि इति तद् अग्रिमदिने इति तादृश सन्दर्भे
लुट्लकारे एव भवति टुडे इफ् इट् इस् टुडे सम्यक् परन्तु अस्तु अस्तु
अस्तु अग्रे नरेश् महोदय तत्र वदति वा अग्रे
अग्रिमे वर्षे संस्कृतभारत्याः विस्तारकः भविष्यामि.
विस्तारकः इत्युक्ते कः?
न श्रूयते महोदय.
विस्तारकः
यः विस्तारयति सः विस्तारकः.
संस्कृतभारत्या इत्युक्ते
संस्कृतभारती
अद्य अहं मौखिकम् अभ्यासं करोमि. श्वः लेखनस्य अभ्यासं करिष्यामि. त्वम् अद्य सायंकाले किं करिष्यति? ते अत्र कदा आगमिष्यन्ति, पठिष्यन्ति च?
अस्तु, तत्र इदानीं रूपाणि पश्यामः. तत्र तत्र वयं पूर्वमेव दृष्टवन्तः, तत्र आत्मनेपदी रूपम् अस्ति, अपि परस्मैपदी रूपम् अस्ति, किञ्चित् भेदः अस्ति तत्र. अस्तु, अग्रे रघु रघुपतिमहोदय. परस्मैपदी रूपं चलित
अस्तु. उच्चैः पठत, जानीता च. एकवचन, द्विवचन, बहुवचन, परस्मैपदी, चल् धातु. प्रथमपुरुष चलिष्यति, चलिष्यतः, चलिष्यन्ति. मध्यमपुरुष चलिष्यसि, चलिष्यतः, चलिष्यत. चलिष्यामि, चलिष्यावः, चलिष्यामः.
इति अस्ति. अस्तु, तत्र तत्र यद् अस्ति तत् अग्रे घम् इति अस्ति. तत्र
किमपि
किं पश्यामि. तत्र लेखिष्यामि तत् कर्तुं शक्नुमः वा? तत्र एतत् दृष्ट्वा
लेखिष्यामि.
अग्रे अग्रे अस्तु, एकवारम् एतद् रूपं पश्यामः. अस्तु, तत्र प्रायशः परस्मै दृश् दातु, तत् एकवारं पठतु महोदय.
द्रक्ष्यति, द्रक्ष्यतः, द्रक्ष्यन्ति. मध्यमपुरुष द्रक्ष्यसि, द्रक्ष्यथः, द्रक्ष्यथ. उत्तमपुरुष द्रक्ष्यामि, द्रक्ष्यावः, द्रक्ष्यामः.
इति तत्र भेदः किञ्चित् वक्तुम् इच्छति वा? तत्र कः भेदः इति? तत्र चलिष्यति अपि, गमिष्यति अपि, द्रक्ष्यति.
द्रश् धातु किञ्चित् भेदः अस्ति. द्रक्ष्य,
तत्र क्षकारः अस्ति. अपि तत्र अन्यत् किं वक्तुं शक्नुमः अस्मिन् लकारे?
इडागम नास्ति, इकार नास्ति,
अत्र ये नास्ति. अपि सर्वत्र सर्वत्र किम् अस्ति तत्र? अन्ते तिक्ति, तः अन्ति इति लट् लकार इव अस्ति खलु? पठामि, पठावः, पठामः इति तादृश एव अस्ति अन्तिमभागः. किन्तु परिवर्तनम् अस्ति. तत्र मध्ये परिवर्तनमस्ति खलु? चलति किं भविष्यति? चलिष्यति इति भवति. तत्र चलति, तत्र लकारः किं ल इति स्थाने इदानीं लिश् इति अस्ति. सर्वत्र यकारः अस्ति खलु? यकारः सर्वत्र सामान्यमस्ति. यत्कारः मध्ये अपि श्या इति अस्ति अथवा क्षा इति भवति करिष्यते तत्र तदेव अपि केवलम् अत्र द्रक्ष्यति ईकारः नास्ति अत्र किन्तु अन्यत्र सर्वत्र किमस्ति करिष्यते वर्तिष्यते इक्षिष्यते तत्र क्षकारः अस्ति अपि ईकारः अस्ति किन्तु एकवारम् एतद् रूपं पश्यामः तत्र चलिष्यति इति रूपं दृष्ट्वा वयम् अन्यानि रूपाणि वक्तुं शक्नुमः वा
अस्तु महोदय
किं चिन्तनं केवलं चलिष्यति इति दृष्ट्वा
अन्यानि
रूपाणि वक्तुं किम् अस्ति इति वक्तुं शक्नुमः वा वयं
पठिष्यति
केवलम् अत्र नवरूपाणि सन्ति किन्तु एकमेव रूपं यदि स्मरामः अन्यं रूपं कर्तुं शक्नुमः वा
न भवति
कुत्र मम प्रश्नः एषः अस्ति अस्मिन् लकारे लुट् लकारस्य उदाहरणार्थम् एतत् स्वीकुर्मः करिष्यति इति जानीमः करिष्यति इति जानीमः केवलं तद् जानीमः इदानीम् अहं पृच्छामि अस्तु करिष्यति इति रूपम् अस्ति प्रथमपुरुषे एकवचने बहुवचने रूपं किं भवति चेत् वक्तुं शक्नुमः वा
आम् लट् लकारस्य एव
करिष्यति इति अस्ति चेत् तस्य बहुवचनरूपं किम् अस्ति
करिष्यन्ति
तत्र अन्ति स्थापयितुं शक्नुमः खलु एकं केवलं रूपं तस्य ज्ञानम् आवश्यकं किन्तु अन्यानि रूपाणि लट् लकार ज्ञानेन कर्तुं शक्नुमः इति
कर्तुं शक्यते
एकम् एकं तु आवश्यकं तत्र द्रक्ष्यते पश्यामि इति ज्ञानमस्ति चेत् ततः द्रक्ष्यति इति तस्य ज्ञानं तु न भवति किन्तु द्रक्ष्यति इति जानीमश्चेत् द्रक्ष्यतः द्रक्ष्यन्ति द्रक्ष्यसि द्रक्ष्यतः द्रक्ष्यतः द्रक्ष्यामि द्रक्ष्यावः द्रक्ष्यामः इति तत्तु कर्तुं शक्नुमः खलु अतः तस्मिन् लकारे एकम् एकस्य ज्ञानम् आवश्यकमस्ति यदि तद् जानीमः अन्यानि रूपाणि कर्तुं शक्नुमः इति अस्तु इदानीं तत्र अग्रिमपुटे पश्यामः तत्र उपरि किम् अस्ति धास्यति इति अस्ति अतः गीताञ्जलि भगिनी धास्यति तस्य नवरूपाणि वदतु तस्य नवरूपाणि चलिष्यति इति रूपं तादृशरूपं लुट् लकारः रूपम् अस्ति अत्र ददाति दास्यति इति भविष्यत्कालरूपम् इदानीम् अन्य द्विवचने प्रथमपुरुषे द्विवचने किम् अस्ति
दास्यति दास्यतः दास्यन्ति दास्यति दास्यतः दास्यथ दास्यामि दास्यावः दास्यामः
इति अस्ति समीचीनं खलु नरेश महोदय तत्र शक् इति धातु अस्ति शक्ष्यति तत्र नवरूपाणि वदतु
शक्ष्यति शक्ष्यतः शक्ष्यन्ति शक्ष्यसि शक्ष्यथः शक्ष्यथ शक्ष्यामि शक्ष्यावः शक्ष्यामः
इति रघुपतिमहोदय तत्र इष् धातुः एषिष्यति
ईशिष्यति ओके अस्तु
इष् धातु एषिष्यति
एकनिमिषं
तत्रैव तत्रैव अस्ति तत्र
ईक्ष्दातु अस्ति महोदय अस्तु ईक्षिष्यते तदेव
महोदय अग्रिमपुटे 112
एकनिमिषं महोदय शक्ष्यति क्रेष्यति इति क्री धातु वा महोदय
तस्य उपरि इष्
धातु ओके एषिष्यति एषिष्यतः एषिष्यन्ति एषिष्यसि एषिष्यथः एषिष्यथ एषिष्यामि एषिष्यावः एषिष्यामः
इति अस्ति तत्र परस्मैपदी धातौ एकस्य रूपम् अत्र जानीमश्चेत् अन्यान्यरूपाणि कर्तुं शक्नुमः
महोदय एषिष्यति इत्युक्ते भविष्यत् काले वाण्ट् टु वाण्ट् विल् वाण्ट्
इच्छति इष् धातोः लट् लकार रूपं किम् अस्ति
इच्छति इच्छतः इच्छन्ति
अस्तु इदानीं तत्र तत्र अन्यत् कार्यं किम् अस्ति तत्र प्रथमतया रूपस्य ज्ञानम् इदानीं परस्मैपदी धातूनां रूपं कीदृशं लृट् लकाररूपं तत्र इष् इति मध्ये भवति तत्र इकारः कुत्रापि भवति किन्तु षकारः अथवा क्षकारः अपि यकारः भवति इति तत् तावत् ज्ञानं भवतु अपि इदानीम् एतत् आत्मनिपदी धातूनां रूपं कीदृशम् इति तदपि पश्यामः तत्र नरेश महोदय करिष्यते इति
परस्मैपदी
न आत्मनिपदी करिष्यते इति
करिष्यते करिष्येते करिष्यन्ते करिष्यसे करिष्येथे करिष्यध्वे करिष्ये करिष्यावहे करिष्यामहे
इदानीं तत्र लट् लकाररूपम् आत्मनिपदी धातूनां तत्र समानम् अस्ति महोदय अन्तिमभागः
अन्ते लट्लकाररूप अपि अन्ते एव
समानमस्ति खलु महोदय तत्र सहते सहेते सहन्ते सहसे सहेते सह द्वे सहे सहावहे सहामहे इति वयं पूर्वं दृष्टवन्तः अत्रापि तादृश एव अस्ति अतः एकस्य ज्ञानम् अस्ति चेत् अन्यानि रूपाणि कर्तुं शक्नुमः इति मन्ये तत्र तत्र पश्यामः तत्र तत्र किम् अस्ति ज्ञास्यते इति अस्ति तत्र गीताञ्जलि भगिनी तत्र वदति वा ज्ञास्यते इति तस्य रूपं किं भवति
ज्ञास्यते ज्ञास्येते ज्ञास्यन्ते ज्ञास्यसे ज्ञास्येथे ज्ञास्यध्वे ज्ञास्ये ज्ञास्यावहे ज्ञास्यामहे
इति अस्ति समीचीनं भगिनि रघुपतिमहोदय तत्र अन्यत् किम् अस्ति तत्र मन्स् किं कुर्मः तत्र युज् धातोः
योक्ष्यते योक्ष्येते योक्ष्यन्ते योक्षसे योक्ष्येथे योक्षध्वे योक्ष्ये अस्तु योक्ष्ये योक्षावहे योक्षामहे
तत्र वयं जानीमः खलु तत्र आत्मनेपदी धातूनां तत्र तकारः वा थकारः सकारः भवति किन्तु उत्तमपुरुषे एकवचने किम् अस्ति तत्र तकारः सकारः किमपि नास्ति खलु तत्र सर्वदा किञ्चित् क्लेशः एव भवति सहे इति वयं सह मे सहे किं किन्तु तत्र सहे एव अस्ति अत्र अपि तादृशं तत्र यत् योक्ष्ये इति योक्ष्यते इति स्थाने योक्ष्ये इति भवति तत्र केवलं तद्रूपम् एकवारं कुर्मः तत्र नरेश महोदय मन्स्यते तत्र उत्तमपुरुषे एकवचने किम् अस्ति
मन्स्ये
द्विवचने
मन्स्यामहे
समीचीनं हा गीताञ्जलि भगिनी तत्र ग्रहिष्यते इति तत्र उत्तमपुरुषे एकवचने किं भवति
ग्रहिष्ये ग्रहिष्यावहे ग्रहिष्यामहे
हा समीचीनं हा अस्तु रघुपतिमहोदय तत्र नेष्यते उत्तमपुरुषे
एकनिमिषं महोदय नेष्यते नेष्यते
न दत्तमस्ति किन्तु इदानीं केवलम्
उत्तमते नेष्यते 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 नेष्यन्ते
न न भगिनी केवलम् उत्तमपुरुषे एकवचनरूपम्
अस्तु अस्तु नेष्ये नेष्ये
नेष्यते इति स्थाने नेष्ये इति अस्ति क्रेष्यते इति अस्ति चेत् उत्तमपुरुषे
क्रेष्ये वा
हा क्रेष्ये क्रेष्ये इति अस्तु हा भोक्ष्यते इति अस्ति चेत्
भोक्ष्ये
हा इति अस्तु हा अस्तु इदानीं हा अस्तु इदानीम् अत्र अभ्यासः यत् अस्ति यः अस्ति तं कुर्मः इदानीं अस्तु गीताञ्जलि भगिनि तत्र पेज् 112 यतो उदाहरणम् अस्ति
यतो उदाहरणं भविष्यत्कालरूपाणि लिखत पठ धातु पठिष्यति पठिष्यतः पठिष्यन्ति चल धातु चलिष्यति चलिष्यतः चलिष्यन्ति
अग्रे
गम धातु गमिष्यति
गमिष्यतः
ओ मध्यमपुरुष गमिष्यसि गमिष्यथः गमिष्यथ
हा इति अस्ति अग्रे
क्रीड उत्तमपुरुष क्रीडिष्यामि क्रीडिष्यावः क्रीडिष्यामः
हा इति अस्ति समीचीनं भगिनि हा अस्तु अग्रे नरेश महोदय
महोदय खादिष्यति खादिष्यतः खादिष्यन्ति
अग्रे
मध्यमपुरुष धाविष्यसि धाविष्यथः धाविष्यथ नम् उत्तमपुरुष नंस्यामि नंस्यावः नंस्यामः
इति हा तत्र एकं रूपम् अस्ति चेत् वयम् अन्यानि रूपाणि कर्तुं शक्नुमः अस्तु रघुपतिमहोदय अग्रे
महोदय अस्तु दृ धातु अस्ति परस्परपदी अस्ति दरिष्यति दरिष्यतः दरिष्यन्ति अपि हृ धातु अस्ति तदपि परस्मैपद मध्यमपुरुष हरिष्यसि हरिष्यतः हरिष्यथ मुद् मोदि ओके आत्मनेपदीरूपम् अस्ति मोदिष्यते प्रथमपुरुष ओके मोदिष्यते मोदिष्यते मोदिष्यन्ते स्पृहति स्पृहति स्मरिष्यामि अस्तु परस्मैपदि अस्ति स्मरिष्यामि स्मरिष्यावः स्मरिष्यामः
भवति समीचीनं महोदय अस्तु अग्रे गीताञ्जलि भगिनि
वद् प्रथमपुरुष वदिष्यति वदिष्यतः वदिष्यन्ति पृच् मध्यमपुरुष पृच् प्रक्ष्यत प्रक्ष्यसि प्रक्ष्यथः प्रक्ष्यथ हु धातु उत्तमपुरुष होष्यामि होष्यावः होष्यामः
हा इति समीचीनं हा नरेश महोदय अग्रे
दृष् धातु उत्तमपुरुष द्रक्ष्यामि द्रक्ष्यावः द्रक्ष्यामः नी धातु प्रथमपुरुष नेष्यति नेष्यतः नेष्यन्ति मिल् धातु मध्यमपुरुष मेलिष्यसि मेलिष्यथः मेलिष्यथ
हा इति समीचीनं महोदय रघुपतिमहोदय अग्रे
पादातु अस्तु एतत् परस्मैपदी अस्ति उत्तमपुरुष पास्यामि पास्यावः पास्यामः रं रं धातु अस्ति रं धातु आत्मनेपदी अस्ति अस्तु रंस्यसे रंस्येते रंसद्वे रंसद्वे रंस्यद्वे रंस्यद्वे रंस्यसे रंस्येते रंस्यद्वे क्षाल् दातु अस्ति परस्मे पदे अस्तु क्षालिष्यसि प्रथमपुरुष अस्तु क्षालिष्यति क्षालिष्यतः क्षालिष्यन्ति
समीचीनं महोदय भगिनी भवत्याः नाम अहं
सूर्यकुमारी
सूर्यकुमारी वक्तुमिच्छति वा अत्र अस्तु भगिनि वदतु अग्रे करोतु
रुद्धातु रोदिष्यसि रोदिष्यतः रोदिष्यत
अग्रे
वदातु वन्दिष्यामि वदिष्यामि वदिष्यावः वदिष्यामः योत्स्यते युद्धातु योत्स्यते योत्स्यते ओत्स्यन्ते
योत्स्यन्ते
योत्स्यन्ते
तत्र सहते सहेते सहन्ते योच्यते योच्येते
योच्यन्ते
योच्यन्ते समीचीनं भगिनि अस्तु अग्रे गीतञ्जलि भगिनि भूधातु
भूधातु प्रथमपुरुष भविष्यति भविष्यतः भविष्यन्ति कृ धातु उत्तमपुरुष करिष्यामि करिष्यावः करिष्यामः कृ धातु उत्तमपुरुष आत्मनेपदी करिष्ये करिष्यावहे करिष्यामहे
करिष्ये समीचीनं भगिनि आत्मनेपदी धातु करिष्ये करिष्यावहे
करिष्यामहे
समीचीनं भगिनि नरेश महोदय अग्रे
स्था धातु उत्तमपुरुष स्थास्यान् स्थास्यावः स्थास्यामः प्रथम पुरुष स्थापयिष्यति स्थापयिष्यतः स्थापयिष्यन्ति नृत्तु मध्यम पुरुष नर्तिष्यसि नर्तिष्यतः नर्तिष्यत
समीचीनं महोदय अग्रे रघुपति महोदय
महोदय तृ धातु अस्ति उत्तमपुरुष परस्मैपदी अस्ति तरिष्यति सोरि तरिष्यामि तरिष्यावः तरिष्यामः लब् धातु अस्तु उत्तमपुरुष आत्मनेपदि लप्से लप्स्यावहे लप्स्यावहे लप्स्यामहे लप्स्य लब् लप्प लप्स्यामहे
इदानीं मध्यमपुरुषे किम् अस्ति तत्र
लप्स्यसे लप्स्ये लप्स्यसे लप्स्येथे लप्स्यद्वे
समीचीनं तदेव अस्तु समीचीनं इदानीं किञ्चित् ज्ञानं जात अभवत् इति मन्ये तत्र एतस्य लकारस्य तत्र परस्मैपदी धातूनां रूपं कीदृशम् एकं जानीमश्चेत् अन्यानि कर्तुं शक्नुमः अपि आत्मनि धातुः अपि तादृश लट् लकाररूप इव अस्ति केवलं परिवर्तनं मध्यभागे भवति किन्तु
महोदय अत्र लब् धातु पकार एव सर्वत्र भवति वा लप् लप् लप्स्य 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 लप्स्यते ओके अस्तु लप्स्यते लप्स्येते
लप्स्यन्ते सत्यं अहं मम मनसि तद् पूर्वं नासीत् किन्तु यथा भवती भवान् वदति सत्यं तत्र पकारः एव अस्ति खलु धातोः पकारः अस्ति किन्तु क्रियापदे केवलं पकारः एव दृश्यामः इति सत्यं महोदय
अपि च महोदय युध् युध् योत्स्यते सकार सकार निमित्तं महोदय सकारनिमित्तं तकार
न
अहं न जानामि महोदय सकारनिमित्तं पकार अहं न
जानामि किन्तु एकं तु अत्र किम् अस्ति वयं भविष्यत्कालरूपे अस्मिन् लकारे किं दृष्टवन्तः श्या इति भवति अथवा स्या इति भवति अथवा क्षिया इति भवति खलु तत्र धातु कीदृशम् इति दृष्ट्वा तत्र भेदः अस्ति तु सत्यं किन्तु साधारणतया श्या इति एव पश्यामः खलु प्रायशः सकारः अपि क्षकारः बहुत्र न भवति इति मन्ये बहुत्र श्या इति एव अस्ति इति मन्ये साधारणरूपं तदेव अस्ति इति मन्ये अस्तु इदानीं किं कुर्मः तत्र अत्र किञ्चित् अभ्यासं तु दत्तमस्ति किन्तु अहं चिन्तयामि यदि वयं तत्र किं कुर्मः तत्र एकनिमिषः तत्र चिन्तयामि यत्र वयं लट्लकारस्य रूपं दृष्टवन्तः तत्र कुत्र आसीत् तत् तत्तु पूर्वं पूर्वं बहु पूर्वं जानाति अस्तु तत्र वाक्यानि सन्ति वा अस्तु अत्र एतत् कुर्मः तत्र प्रथमाभ्यासं कर्तुं शक्नुमः किन्तु तत्र यद् रूपम् इदानीं पठितवन्तः तम् उपयुज्य किञ्चित् वाक्यानि रचितुं प्रयत्नं कुर्मः तत्र तत्र पश्यतु अनेकानि क्रियापदानि सन्ति तस्य उपयोगं कृत्वा किञ्चित् वाक्यं रचयितुं शक्नुमः इति मन्ये तत्र पठिष्यति पठिष्यामि नोष्यामि मोदिष्यति स्मरिष्यामि होष्यामि नेष्यामि अस्ति अतः किञ्चित् कानिचन वाक्यानि कर्तुं शक्नुमः इति मन्ये तत्र रघुपतिमहोदय किमपि वाक्यं
अस्तु अहं श्व चित्रमन्दिरं गत्वा चित्रं दृष्ट्वा मोदिष्यामि
मोदिष्यामि अस्तु
चलनचित्रं दृष्ट्वा
अस्तु अग्रे नरेश महोदय एतादृशं वाक्यं
अहं पुस्तकं पठित्वा विद्यालयं गमिष्यामि
गमिष्यामि अस्तु
महोदय अहं दोषं कृतवान् मोदिष्यते इति मोदे अस्ति अत्र तत् मोदिष्ये इति भवति
सत्यं तत् आत्मनेपदि दातु अस्ति सत्यं महोदय धन्यवादः गीताञ्जलि भगिनि
अहं श्वः पुनः संस्कृतपाठं पठिष्यामि
समीचीनं भगिनि सूर्यकुमारी भगिनि
आम् अग्रे सप्ताहे अहम् अग्रिमे सप्ताहे कक्षां गमिष्यामि गमिष्यामि
समीचीनम् अथवा आगमिष्यामि
गमिष्यामि
अन्यत्र अस्ति चेत्
गमिष्यामि
अस्तु समीचीनं भगिनि अस्तु तत्र किञ्चिदेव एतादृश अभ्यासं भवति इति कृत्वा तावदेव अस्तु इदानीं तत्र प्रथम अभ्यासः कुर्मः तत्र सूर्यकुमारी भगिनी भवती एव पठति वा अग्रिम अभ्यासः एतेषु वाक्येषु इति
पुनः वदतु महोदय
पेज् 113 मध्ये अभ्यासः अस्ति तत् पठति वा एतेषु वाक्येषु इति
150
अग्रिमपुटे अग्रिमपुटे इदानीं तत्र प्रथम अभ्यासः
एतेषु वाक्येषु लट्लकाररूपाणां स्थाने लुट्लकाररूपाणि प्रयुज्य वाक्यानि पुनः लिखत उदाहरण सा गीताप्रवचनं शृणोति लुट् लकारे सा गीताप्रवचनं श्रोष्यति प्रथम वाक्ये कृष्णः कदा अवतरति कृष्णः कदा आगमिष्यति
तत्र अवतरति एव अस्ति
अवतरिष्यति
तरति इति तस्य रूपं दत्तम्
अवतरति कदा अवतरति अर्धकः महोदय अवतरति
तस्य अवतारः सः कदा तस्य अवतारः कदा भवति इति
कदा अवतरिष्यति
अवतरिष्यति इति साधारणरूपं तदेव अस्ति तत् समीचीनं वा तत् अवतरिष्यति अस्तु भगिनि अवतरिष्यति तत्र
दत्तमस्ति महोदय अत्र त्रिधातुः अस्ति न तरिष्यावः तरिष्यामः अतः त्रिधातुः तदेव लप्स्ये तत्र पूर्वम् अस्ति त्रिधातुः अस्ति त्रि उत्तमपुरुषः तरिष्यावः
तरिष्यावः समीचीनं
तदेव
तत्र अवतरिष्यति समीचीनं धन्यवादः महोदय धन्यवादः सूर्यकुमारी भगिनी समीचीनं वा तत्र त्रु इति धातुः अस्ति तत्र उपरि लब् इति अस्ति लप्स्ये तस्य उपरि तृ धातुः
तरिष्यावः
इदानीं किम् अस्ति अवतरिष्यावः अव इति धातु पूर्व धातुः तत्र उपसर्गः अस्ति अवतृ इति तृ धातुः तरिष्यति अवतृ इति इदानीं धातुः अस्ति अवतरिष्यति इति
अवतरिष्यति
अवतरिष्यति समीचीनमेव अस्ति पुनः एकवारं वाक्यं वदतु भगिनि
कृष्णः कदा अवतरति कृष्णः कदा अवतरिष्यति
समीचीनं महोदय समीचीनं भगिनि अस्तु अग्रे गीतञ्जलि भगिनि
महोदय एकः प्रश्नः महोदय यदि अत्र प्रश्न अस्ति कृष्णः कदा अवतरति उत्तरं
अवतरिष्यति
अस्तु अवतरति किन्तु अवतरति लट् लकाररूपं कदा अवतरति सेम् क्वश्चन् विल् बि आस्क् फार् पास्ट् टेन्स् एण्ड् फ्यूचर् आल्सो
अद्य अवतरति
अद्य
अवतरिष्यति तत्र तस्य अवतारः कदा भवति इति
केवल त्रीणि पदानि सन्ति एते वाक्येषु कृष्णः कर्ता कदा कर्तृपदं कदा प्रश्नवाचकः अवतरति. अत्र एतस्य अध्याय एतस्य पाठस्य वयं लट् लकाररूपम् अभ्यासं कुर्मः, किन्तु यदि न कुर्मः चेत् केवलं इति प्रश्नः अस्ति चेत् किमपि लकार उत्तरं
समानं भवति इति वा? यदि प्रश्नः अस्ति कृष्णः कदा अवतरति, अथवा यदि प्रश्नः अस्ति कृष्णः कदा अवतरिष्यति, उत्तरं समानम् एव भवति इति वा? तत् प्रायशः सत्यं, किन्तु अत्र यः प्रश्नं पृच्छति तस्य मनसि किं ज्ञानम् इति सः जानाति. अद्य कृष्णस्य अवतारं न भवति, अग्रे एव भवति इति तस्मिन् मनसि अस्ति चेत् सः अवतरिष्यति इति तस्य प्रश्नः भवति. यदि सः चिन्तयति अद्य एव भवति इति, अतः सः वदति इति वदतु महोदय.
इदानीं सर्वे तदेव प्रश्नं पृच्छति कदा पुनः
अभ्यासार्थम् इति प्रश्नः दत्तं न, किन्तु समानभाषा वयं यदि लट् लकाररूपम् अपेक्ष
अत्र प्रायशः बहु भेदः नास्ति भगिनि, किन्तु रूपस्य अभ्यासं तु भवति खलु.
अस्तु अस्तु,
अभ्यासमेव
अत्र अन्यविषयः अपि अस्ति, अत्र अवगमनं सुलभम् अस्ति खलु. वयम् उत्तरस्य यद् नूतनरूपं नूतनवाक्यं कुर्मः तस्य अर्थः कः इति वयम् अवगन्तुं शक्नुमः खलु.
तौ गीताचार्यं नमतः. तौ गीताचार्यं नमस्यावः. तौ इति प्रथमं तौ गीताचार्यं
प्रथमपुरुष
द्विवचन नंस्यतः. तौ गीताचार्यं नंस्यतः.
नमिष्यतः नास्ति भगिनि, तत्र नं दातु नंस्यामि इति पूर्वस्मिन् पुटे
दत्तं
नंस्यामि इति अस्ति.
किञ्चित् क्लेशः.
तत्र नं दातुः नंस्यामि
नंस्यतः.
अग्रे नरेश् महोदय.
यूयं भक्तियोगं पठत. भक्तियोगं पठिष्ठ.
पठि
पठिष्यथ
पठिष्यत. पठिष्यत. यूयं
यूयं भक्तियोगं पठिष्यत.
इति समीचीनं. रघुपति महोदय.
योगिनः योगिनः तत्त्वं पश्यन्ति. तत्र प्रथमपुरुष बहुवचनम् अस्ति. योगिनः तत्त्वं द्रक्ष्यन्ति.
समीचीनम्. इदानीं सूर्यकुमारी भगिनि.
वयम् अतः परं न भवामः. वयम् अतः परं न भविष्यामः.
हा भविष्यामः, समीचीनं भगिनि. हा गीताञ्जलि भगिनि अग्रे.
यूयं स्वनिमित्तमेव पाकं कुरुत. यूयं स्वनिमित्तमेव पाकं कुरुत इत्युक्ते परस्मैपदी रूप महोदय. वयं मध्यम बहुवचन
मध्यम बहुवचनम् अतः
करिष्यथ
करिष्यथ. तत्र स्वनिमित्तम् इति तत्र स्वनिमित्तम् इत्युक्ते केवलं यद् आवश्यकं स्व इत्युक्ते फोर् हिम्सेल्फ् इति.
ओ
कुक् हा पाकं कुरुत यूयं स्वनिमित्तमेव फोर् युर् सेल्फ् डोण्ट् कुक् फोर् एव्री वन् इति. स्वनिमित्तमेव पाकं कुरुत.
कथं जानीमः महोदय कुरुत परस्मैपदी एव?
तत्र आत्मनेपदी धातु अस्ति चेत् किं भवति अन्ते लट्लकारे?
भाषते भाष्येते
खलु एकारः अस्ति.
अस्तु
महोदय, एकारलक्षणम् अस्ति आत्मनेपदी धातूनां लट्लकारे.
अस्तु महोदय, धन्यवादः.
अस्तु नरेश महोदय.
शस्त्राणि आत्मानं न छिन्दन्ति. छिन्दन्ति लिट्लकारे किमस्ति न जानामि.
छिन्दिष्यामि छिन्दिष्यन्ति
प्रायश तावदेव अस्ति. छिन्दिष्यन्ति महोदय.
शस्त्राणि आत्मानं न छिन्दिष्यन्ति.
तत्र
छिन्दति छिन्दतः छिन्दन्ति.
तत्तु
छिन्दिष्यति छिन्दिष्यतः छिन्दिष्यन्ति.
तदेव वयमपि किन्तु द्रष्टव्यम् अस्ति तत्र यदि साधारणरूपम् अस्ति वा अथवा विशेषरूपम् अस्ति वा इति.
विशेषरूपम् अस्ति महोदय.
अस्तु तत्र
सिद्धिर् अस्ति अतः चिनत्ति भिन्ना अस्ति महोदय. एकनिमिषं महोदय, परस्मैपदि छिन्दन्ति एतत् उभयपदि अस्ति अतः एकनिमिषं लुट्लकार परस्मैपदि अस्ति लुट्लकार परस्मैपदं चेत्स्यति चेत्स्यतः चेत्स्यन्ति चेत्स्यति चेत्स्यतः चेत्स्यति एव.
तत्र लकारे एतदेव सर्वदा समस्या एव अस्ति एव. साधारणरूपम् अस्ति विशेषरूपमपि अस्ति. तत्र यदि विशेषरूपम् अस्ति न दत्तं चेत् कथं कर्तुं शक्नुमः खलु? तत्र पुस्तके किमपि नियमः न दत्तः खलु, अतः वयं केवलं साधारणरूपं कर्तुं शक्नुमः पुस्तकं दृष्ट्वा. अतः अस्तु तत्र रूपं किम् अस्ति महोदय? चेत्स्यन्ति. अस्तु
चेत्स्यन्ति चेत्स्यन्ति
चेत्स्यन्ति
चेत्स्यन्ति चेत् सकार सन्ति चेत्स्यन्ति
चेत्स्यन्ति
चेत्स्यति चेत्स्यतः चेत्स्यन्ति.
अस्तु प्रथमस्य चेत्स्यति
चेत्स्यन्ति
सर्वत्र चेत् एव भवति
सर्वत्र चेत् इति
चेत् एव
बाकि नास्ति च नास्ति च अस्ति
न तत्र प्रश्नः अस्ति महोदय रघुपति महोदय अल्पप्राण वा महाप्राण वा इति प्रश्न
महाप्राण गुण अस्ति चे चे भवति चे
चि नास्ति महोदय नरेश महोदय तत्र महाप्राणः एव इकार स्थाने एकारः अस्ति
छिद् धातु अस्ति तदपि महाप्राण एव
छेत्स्यन्ति
शस्त्राणि आत्मानं न छेत्स्यन्ति इति अस्तु अस्तु रघुपति महोदय अग्रे
एकनिमिषं महोदय कुत्र अस्ति अवतरति आवाम् आवाम् आवां गीतां शृणुमः अस्तु आवां गीतां श्रोष्यामः वा ओके श्रोष्यावः अस्तु श्रोष्यावः
श्रोष्यति इति दत्तमस्ति अतः
श्रोष्यावः इति मध्यमपुरुष सारि उत्तमपुरुष द्विवचने
समीचीनं महोदय अस्तु सूर्यकुमारी भगिनी
त्वं पापं न अनुभवसि त्वं पापं न
भविष्यति भविष्यसि इति अत्र अनुभू इति
उपसर्ग
उपसर्ग अस्ति तावत्
अनुभविष्यसि
त्वं पापं न अनुभविष्यसि
अनुभविष्यसि
इति अस्ति अस्तु इदानीं किञ्चित् ज्ञानं प्राप्तम् अस्माभिः अत्र समयः जातः किन्तु परिचयः तु अभवत् लृट् लकारस्य अस्तु अग्रिमवर्गे एतदेव कुर्मः अस्तु अस्तु अन्यप्रश्नः अस्ति वा
इदानीं
तत्र प्रायशः विशेषरूपं कदा भवति इति तस्य विषये किञ्चित् द्रष्टव्यमस्ति तत्र किमर्थं तत्र एतत् छिन्दति इति किमर्थं तत् छेत्स्यति किमपि रूपं यदासीत् अस्तु तत् पश्यामः अग्रिमं द्रक्ष्यामः अस्तु अस्तु सर्वेभ्यो नमः अग्रिमवर्गे मिलामः
धन्यवादः
शुभनवरात्रि
शुभनवरात्रि।